हेलो
हेलो।
हेलो, अभी सलाम तेरे स्टूडेंट कभी स्वीट नंबर में डाउन लो,
हाँ
कभी स्वीट नंबर में डाउन लो।
हाँ
हमारे यहाँ चला लो बाती
बटन
अच्छी टेलीग्राम ला या हुआ रहे नंबर मुझे आप दी ना
भी
अच्छी मंदिर नंबर को टाइक
हाँ कदम के वेस्ट भी चलाए बुर या जोरन हल्का ब्रांड के लिए बुर लाए जोरन नहीं लम बुर हाँ
को आन को डिपॉजिट ना ऐड रखा वाटे ला और अभी स्वेन नेस का पाओ
इस ब्राउन हो वो डे सिल्क पतर
शे डिप गुई मैं जब मरे डिपॉजिट को लेना पर रस्ता ना करा नहीं ना पर ओले जानो शे अमान्य हो या विस डू ऐड रखा वेस बेहतरीन हो सिल्क उतर नो हुलेट सिल्क उतर ना पर इलाक ले ना डला
जीरो सही अरबाज सही
पारवास टाइम
हाँ समझने से जीरो रस समझने से मिलता
रात
लगता
कहीं आंटे आपा
है
एरा वर्ल्ड कप बैठे ना एरा वर्ल्ड कप बैठे नहीं मारे ना
हाँ ये तो वो सीधा
अश या वेस्ट वेस्ट कुतर है नेल को आपा या वेस्ट वेस्ट थी तमाम जगह के बैठ वेस्ट वेस्ट लाइल में चौथी तमाम जगह के बैठ कुतर आला डला सिल्क कुतर
जरूर तेंस मिसाल सुनिए
अच्छी जरूर तेंस लिसा सुनिए
चला सांड
चला सांड
अस्पर जतनांड
सर
बोलो
जतनांड በፎቶ የላከው ነው በ2111 የሚለው ነው። 500 ብር
100 ብር አይደለም 500 ብር ነው
500
ወደፊት
ብር
ብር
500 ብር ነው ያልኩህ። 500 ብር ነው
አዎ
ባላንስ ይላል እኮ አንተ የላክልን አካውንት ስትሪ ነው እራሱ አይተኸዋል አይደለ? ባላንስ ይላል እኮ ወዴት
አልገባም ነው
እንደገባ እኔ ቼክ አደርግልሃለሁ። ወዴት እንደገባ ግን ኦልሬዲ አንተ አካውንት ላይ እንደገባ አሳይተኸዋል አይደለ?
ወጥቷል እንዳለ ከቤስት ቤት እንደወጣ አሳይቶኛል ነው
አይ ባላንስድ ማለት ይል ኦልሬዲ ወደዛኛው ወደ አዘዝክበት ወዴት ነበር ያዘዝከው?
ወደ 49 ላይ ነው ቴሌብር ያዘዝኩት።
ቀኑን ልክ ነህ አባቴ ወይም ደግሞ ስልክ ቁጥሩ ልክ ነህ ወይ? በሁለት ቀን ውስጥ እንደዚህ አይነት ትራንዛክሽን እያወጣልኝ አይደለም።
አዎ ዛሬ ነው ዛሬ ቀደም ወደ 10 ሰዓት ላይ
የምትነግረኝ ገብቶሃል? ስልክ ቁጥሩ የየትኛው እንደምትነግረኝ ሪስትሪን ለመጫወት ወይም ደግሞ ዊዝድሮስ ልታረግ ስትል በየትኛው አካውንት ገብተህ ነው ዊዝድሮ ያዘዝከው? ወደ ቴሌብር ወይም ደግሞ ወደ ንግድ ባንክ ስታዝ በየትኛው ነበር ያዘዝከው?
ወደ ቴሌብር ነው ያዘዝኩት
እኮ። ወደ ቴሌብር ከማዘዝ በፊት የገባህበት አካውንት ቁጥር ነው የፈለግኩት፣ የገባህበትን ስልክ ቁጥር ማለት ነው ገብተህ ያዘዝክበትን።
እኮ 0968 ነው ገብቼ ያዘዝኩበት።
3111 ያልከኝ በዚህ ትራንዛክሽን ይኸውልህ፣ በዛሬ በ21 ማለት ነው መጨረሻ ላይ ይህንን አካውንት የተጠቀምከው ራሱ መቼ እንደሆነ ታስታውሳለህ አባ? ከሁለት ቀን በፊት እኮ ነው፣ በ19 ማለት ነው።
ግን ዛሬ ነው እየተጫወት የነበረው እና የላኩት ዛሬ ነው
አይደለም አባት? ይኸውልህ ሲስተም ራሱ ይመዘግበው ነበረ ከዚህ አካውንት ቁጥር ቢሆን ያወጣኸው ማለት ነው። ምናልባት ተሳስተህ ከሆነ ከእንደገና ቼክ አድርግና ደውልልን እሺ? ወይ ደግሞ በሌላ የምትሰጠኝ ቼክ የማደርግልህ ቁጥር ካለ እሱን ንገረኝ።
እሺ ቆይ አንድ ቼክ ላድርግ ነው ልመልስልሽ።
ወይ 27 በሚለው ነው
27 የሚለውም አለ። አዎ
በሱ ነው
27 26 31
የላክልን ስልክ ቁጥር ማለት ነው።
አዎ
500 ብር ነው ያልከኝ አይደለ?
አዎ
እለ ቅድም